इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्या वार्ताः। अद्य प्रधानमन्त्री नरेन्द्रमोदी तेलंगानाराज्ये प्रायः चतुर्णवति शतकोटि रूप्यकाणाम् आधारभूत संरचना औद्योगिक परियोजनानां च उद्घाटनं शिलान्यासं च कृतवान्। उत्तरप्रदेशराज्ये मुख्यमन्त्री योगी आदित्यनाथ अद्य स्वमन्त्रिमण्डलस्य विस्तारं कृतवान्। भाजपादलस्य षट् नेतारः मन्त्रिरूपेण शपथं गृहीतवन्तः। तमिलनाडुराज्ये टीवीके दलस्य संस्थापकः श्री सी जोसेफ विजय अद्य प्रातःकाले मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। तेन सहैव नवमन्त्रिणः अपि शपथं गृहीतवन्तः। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता डॉ हिमंता विश्वास शर्मा विधायक दलस्य नेतारूपेण निर्वाचितः। अपि च शंघाई नगरे आयोजिते धनुष्क्रीडायाः विश्व चषक स्पर्धायां भारतीय महिला रिकर्व दलेन चीनदेशं पराजित्य स्वर्णपदकं प्राप्तम्। अथ वार्ताः विस्तरेण। अद्य प्रधानमन्त्री नरेन्द्रमोदी तेलंगानाराज्ये प्रायः चतुर्नवति शतकोटि रूप्यकाणाम् आधारभूत संरचना औद्योगिक परियोजनानां च उद्घाटनं शिलान्यासं च कृतवान्। एतासां परियोजनानाम् उद्देश्यः सम्पर्क सुदृढीकरणं कार्यक्षमतायाः उन्नयनं सुरक्षावर्धनं तथा जनानां कृते उत्तम यात्रानुभवस्य प्रदानेन सह सम्बद्ध अस्ति। हैदराबाद अन्तर्राष्ट्रिय सम्मेलन केन्द्रे आयोजिते अस्मिन् कार्यक्रमे तेलंगानाराज्यस्य राज्यपाल शिवप्रताप शुक्ला मुख्यमंत्री ए रेवंत रेड्डी केन्द्रीय मंत्री जी किशन रेड्डी तथा अन्ये वरिष्ठ नेतारः उपस्थिताः आसन्। सभां संबोधयन् प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् केन्द्र सर्वकारेण गृहीतानां उपायानां कारणात् भारतदेशः पश्चिम एशिया संघर्षजनितं ऊर्जा संकटं प्रभावीरीत्या नियन्त्रयति। सः अवदत् यत् आयातित पेट्रोलियम उत्पादानां उपयोगः केवलं आवश्यकतानुसारमेव करणीयः, येन विदेशी मुद्रायाः संरक्षणं भविष्यति तथा वर्तमान संघर्षस्य प्रतिकूल प्रभावानां न्यूनीकरणे सहायता भविष्यति। नरेन्द्र मोदी उक्तवान् यत् पश्चिमबंगः असमः पुद्दुचेरी चेत्येतेषु त्रिषु राज्येषु भारतीय जनता पार्टी इति दलस्य विजयः केन्द्रप्रशासनस्य राष्ट्रिय नीतिं प्रति जनसमर्थनस्य प्रमाणम् अस्ति। तेन उक्तं यत् निर्वाचन परिणामैः देशस्य भावना ज्ञायते। अद्य बेंगलुरुनगरे भाजपा कार्यकर्तृभ्यः सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् अद्य तादृश्याः प्रशासनस्य आवश्यकता अस्ति यः शीघ्रं कार्यं कर्तुं शक्नुयात्, सुशासनं दातुं समर्था भवेत्, समस्याः समाधानं कृत्वा देशः प्रगतिपथे नेतुं च समर्था भवेत्। तेन एतदपि उक्तं यत् भाजपादलस्य शासनम् अधुना एकविंशति राज्येषु वर्तते, यत्र लोककल्याणाय देशस्य समृद्धे च कार्यं क्रियते। प्रधानमन्त्री कांग्रेसदलोपरि स्त्रीणां प्रति अविश्वासस्य आरोपं प्रख्यापितवान्। सः अवदत् यत् कांग्रेसदलेन संसदि नारीवन्दन संशोधन विधेयकस्य विरोधे मतदानं कृतं, यस्मिन् संसदि महिलानां कृते 33% आरक्षणस्य व्यवस्था कृता आसीत्। प्रधानमन्त्री राष्ट्रविकासाय कार्यं कर्तुं तथा च अमेरिका ईरान युद्धजनितानां समावानानां सम्मुखीकर्तुं जनेभ्यः एकताया आह्वानम् अपि अकरोत्। उत्तरप्रदेशराज्ये मुख्यमन्त्री योगी आदित्यनाथ अद्य स्वमन्त्रिमण्डलस्य विस्तारं कृतवान्। भाजपादलस्य षड् नेतारः मन्त्रिरूपेण शपथं गृहीतवन्तः। राज्यपालया आनन्दीबेन पटेल वर्यया लखनऊनगरे जनभवने आयोजिते कार्यक्रमे एतेभ्यः मन्त्रिभ्यः पदस्य गोपनीयतायाश्च शपथं प्रदत्ता। भाजपादलस्य पूर्व प्रदेशाध्यक्ष भूपेन्द्र चौधरी तथा भाजपा नेता मनोज पाण्डेयः मन्त्रिमण्डले मन्त्रिणो नियुक्तौ। राज्यमन्त्री अजितपालसिंहः तथा सोमेन्द्र तोमरः च स्वतन्त्र प्रभारयुक्त मन्त्रिणो अभवताम्। अस्मिन्नेव काले कृष्णा पासवानः, सुरेन्द्र दिलेरः, हंसराज विश्वकर्मा तथा कैलाश राजपूतः च राज्यमन्त्रिरूपेण मन्त्रिमण्डले समावेशिताः। अनेन विस्तारेण उत्तरप्रदेश विधानसभायाः 3,400 सदस्येषु मन्त्रिपरिषदि संख्या षष्टि जाता, या स्वीकृतमन्त्रिणाम् अधिकाः संख्या अस्ति। प्रधानमन्त्री नरेन्द्रमोदी पर्यावरणं प्रति उत्तरदायित्वभावेन युवा सशक्तीकरणेन तथा आन्तरिक शुचिताया भावनया सह विकसित भारत निर्माणाय एकतां स्थापयितुम् आह्वानम् अकरोत्। अद्य बेंगलुरुनगरे आयोजिते आर्ट ऑफ लिविंग संस्थायाः 45 वर्षपूर्ति समारोहे श्रीमोदी सहभागितां कृतवान्। तेन संस्थायाः नवनिर्मितस्य ध्यानमन्दिरस्य उद्घाटनमपि कृतम्। अस्मिन् अवसरे श्रीमोदी उक्तवान् यत् सेवा, आध्यात्मिकता तथा सामाजिक परिवर्तन चेत्यादिषु क्षेत्रेषु आर्ट ऑफ लिविंग संस्थायाः भूमिका अत्यन्तं महत्वपूर्णा अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषी तन्त्रांशे अपि उपलब्धो भविष्यति। तमिलनाडु राज्ये टीवी के दलस्य संस्थापकः श्री सी जोसेफ विजयः अद्य प्रातःकाले मुख्यमंत्री पदस्य शपथं गृहीतवान्। राज्यस्य राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरस्य अध्यक्षे नेहरू इंडोर स्टेडियम इत्यत्र आयोजिते शपथग्रहण समारोहे श्री विजयः पदगोपनीयतायाश्च शपथं गृहीतवान्। तेन सह नवमन्त्रिणः अपि शपथं गृहीतवन्तः। अस्मिन् अवसरे राहुल गांधी तथा तमिल चलचित्र उद्योगस्य अनेकाः प्रसिद्धा जनाः उपस्थिताः आसन्। श्रीविजयेन ऐतिह्यं निर्मितं यत् तस्य दलं स्वस्य प्रथमैव निर्वाचने महद्विजयम् अलभत्। कांग्रेस दलं सीपीआई सीपीआईएम वीसीके तथा आईयूएमएल चेत्यादीनां दलानां साहाय्येन श्रीविजयः 20-अधिकैकशत निर्वाचित विधायकानां समर्थनम् अलभत्। प्रधानमन्त्री नरेन्द्र मोदी अद्य श्री सी जोसेफ विजयाय पदग्रहणस्य उपलक्ष्ये तस्मै शुभकामनां प्रेषितवान्। श्रीमोदी सामाजिक माध्यमे उक्तवान् यत् केन्द्र प्रशासनं तमिलनाडु प्रशासनेन सह मिलित्वा जनानां जीवनस्तरस्य उन्नयनार्थं निरन्तरं कार्यं करिष्यति। तेन श्रीविजयस्य आगामि कार्यकालाय अपि शुभकामनाः प्रदत्ताः। भारतीय जनता पार्टी इति दलस्य वरिष्ठ नेता डॉ हिमंता विश्व शर्मा विधायक दलस्य नेता रूपेण निर्वाचितः। अद्य प्रातःकाले गुवाहाटी नगरे सम्पन्नायां सभायां रंजीत कुमार दास विश्वजीत दैमारी अजंता नियोगः राजदीप राय अशोक सिंगल पीयूष हजारिका समेत्य अष्ट भाजपा दलस्य विधायका डॉ हिमंत बिस्वा शर्मण नाम प्रस्तावितवन्तः। शिक्षा मंत्रालय ग्रीष्मावकाश काले देशस्य सर्वेषु विद्यालयेषु भारतीय भाषायाः कृते ग्रीष्मकालीन शिविरस्य आयोजनं करिष्यति। एषः एक सप्ताहात्मकः शिविरः भारतीय भाषासु मौलिक संवाद कौशल अधिगमाय शब्द परिचयाय आत्मपरिचय प्रदर्शनाय वास्तविक जीवन संवादाय तथा च संस्कृतेः प्रशंसाय च केन्द्रितः भविष्यति। श्रीलंका देशस्य राष्ट्रपतिना अनुरा कुमारा दिसानायके अद्य टीवीके दलस्य प्रमुखः सी जोसेफ विजयः इत्यस्मै तमिलनाडु राज्यस्य मुख्यमंत्री पदस्य शपथग्रहणानन्तरं त्वरितमेव शुभकामनाः प्रदत्ताः। सामाजिक माध्यमे एकस्मिन् सन्देशे दिसानायके उक्तं यत् श्रीलंका तमिलनाडु उभयोः मध्ये ऐतिहासिकाः सांस्कृतिकाः उद्योगाः चेत्यादयः सुदृढाः सम्बन्धाः विद्यन्ते। सः उक्तवान् यत् उभयोर्देशयोः मध्ये भविष्ये अपरिमिताः आर्थिक सम्भावनाः अवसराश्च सन्ति यतः तौ निरन्तरं परस्परं घनिष्ठ सम्बन्धान् सुदृढं कुरुतः। रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिनेन उक्तं यत् युक्रेन देशेन सह प्रचल्यमानः युद्धविवादः अधुना समाप्तिं प्रति गच्छति। तेन पश्चिम एशिया देशेषु वर्तमानस्य संघर्षस्य अपि शीघ्र समाधानस्य आशा प्रकटिता। तेन उक्तं यत् यदि विवादः अधिकं वर्तते तर्हि महदहानी भविष्यति। यूरोपीय नेतृभिः सह वार्तालाप विषये पृष्टे सति राष्ट्रपति पुतिनः अवदत् यत् तादृश्याः चर्चायाः कृते जर्मनी देशस्य पूर्व चान्सलर गेरहार्ड श्रोडर तस्य प्रिया नेता अस्ति। पुतिनः एतदपि उक्तवान् यत् स्थायि शान्ति प्रस्तावस्य अन्तिम रूपस्य निर्णयानन्तरमेव सः युक्रेन देशस्य राष्ट्रपतिना व्लोदिमीर जेलेंस्की इत्यनेन सह मिलिष्यति। शंघाई नगरे आयोजिते धनुष्क्रीडायाः विश्वचषक स्पर्धायां भारतीय महिला रिकर्व दलेन चीनदेशं पराजित्य स्वर्णपदकं प्राप्तम्। आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य लखनऊ सुपर जायंट्स दलं चेन्नई सुपर किंग्स दलं सम्मुखीकरोति। प्रप्रथमं क्रीडयता लखनऊ सुपर जायंट्स दलं अष्टक्रीडकानां हानिपुरस्सरं 3,200 धावनांकाः विनिर्मिताः। सम्प्रति उभयोः दलयोः मध्ये स्पर्धा प्रचलति। मुख्यवार्ता पुनरेकवारम्। अद्य प्रधानमन्त्री नरेन्द्र मोदी तेलंगानाराज्ये प्रायः 94 कोटि रूप्यकाणां आधारभूत संरचना औद्योगिक परियोजनानां च उद्घाटनं शिलान्यासं च कृतवान्। उत्तरप्रदेश राज्य मुख्यमंत्री योगी आदित्यनाथ अद्य स्वमंत्रिमंडलस्य विस्तारं कृतवान् इति वार्ताः।